क्षेत्रादेवी पद्मा पंकजधारिणी भालं पातु जगन्माता लक्ष्मी पद्मालया च मे मुखं पायान् महामाया दृशौ मे भृगुकन्यका घ्राणं सिन्धुसुता पायान् नेत्रे मे विष्णुवल्लभा कण्ठं रक्षतु कौमारी स्कन्धौ पातु हरिप्रिया हृदयं मे सदा रक्षेत् सर्वशक्ति प्रदायिनी नाभिं सर्वेश्वरी पायात् सर्वभूतालया च मे कटिञ्च कमला पातु उरू ब्रह्मादिदेवता जङ्घे जगन्मयी रक्षेत् पादौ सर्वसुखावः श्रीं बीजं वासनिरता सर्वाङ्गे जनकात्मजा सर्वतो भद्ररूपा मामव्याद्दिक्षु विदिक्षु च विषमे सङ्कटे दुर्गे पातु मां व्योमवासिनी इतीदं पञ्जरं लक्ष्म्या गुह्याद्गुह्यतरं महत गोपनीयं प्रयत्नेन न दद्याद्यस्य कस्य च यः पठेत् प्रयतो नित्यं फलाहारी चिदिन्द्रियः ध्यायेल्लक्ष्मीपदं प्रीत्या तस्य किञ्चिन्न दुर्लभम् विष्णोर्नाम्ना सहस्रेण सम्पुटीकृत्य यः पठेत् पञ्चायुतप्रयत्नेन स सिद्धः स याद्यथा हरिः बिल्वपीठे लिखेत् यन्त्रं षट्कोणं मन्त्रसंयुतम् तत्र सम्पूजयेन् देवीं तदग्रे पाठमाचरेत् हरिद्रामालया सङ्ख्याम् कुर्वन्नित्यमतन्त्रितः सर्वसिद्धिमवाप्नोति यद्यद्वाञ्छित सत्वरम्।